वसपन्मुद्राय अर्जुनुवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च संससि यत्सेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् श्रीभगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावभौ तयोस्तु कर्म संन्यासात् कर्मयोगो विशिष्यते ज्ञेयस नित्यसंन्यासी यो न दृष्टि न कांक्षति निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते सांख्ययोगौ पृथक् बाला प्रबलन्ति न पण्डिता एकमप्यास्थितः सम्यक् उभयोर्विन्दते फलम् यः साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति संन्यासस्तु महाबाहो दुःखमात्मयोगत योगयुक्तो मुनिब्रह्मा न चिरेणाधिगच्छति योगयुक्तो विशुद्धात्मा विदितात्मा जितेन्द्रिय सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववे पश्य शृण्वन् स्पृशे जिघ्नम् नाश्नन् गच्छन् स्वपैश्वसन् कल्पान्विशिगन्धन् नुन्मिषन्निमिषन्नपि इन्द्रियाणीन्द्रियाधिषु वर्तान्त इति धारयन् ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य लिप्यते न स पापेन पद्मपत्यमिवम्बसा कायेन मनसा बुद्ध्या केवलैरेन्द्रियैरपि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये योक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकी अयोक्तः कामकारेण फले सक्तो निबध्यते सर्वकर्माणि मनुषा संन्यस्यास्ते सुखं वशी नवद्वारे पुरे देहि नैव कुर्वन्न कारयन् न कर्त्रे त्वं न कर्माणि लोकस्य सृजति प्रभो न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते नाद्यते कस्यचित् पापं न चैव सुकृतं विभो अज्ञानेन आवृतं ज्ञानं तेन मोह्यन्ति जन्तव ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन तेषामादित्यवज्ञानम् प्रकाशयति तत्परम् तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा गच्छन्त्यपुनरावृत्ति ज्ञाननिर्भूतकर्मशा विद्या विनयसम्पन्ने ब्राह्मणे गविहस्तिनी सुनिचैव श्ववाके च पण्डिता समदर्शिन इहैव तैर्जितः सर्गो ईशं साम्ये स्थितं मन निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिता न प्रशिष्ये प्रियं प्राप्य नो द्विजे प्राप्य चाप्रियं स्थिरबुद्धिरसम्मोढो ब्रह्मविद्ब्रह्मणि स्थित बाह्यस्पर्शे स्वसक्तात्मा विन्दत्यात्मनि यत्सुखं सब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ये हि संस्पर्शजा भोगा दुःखयो नय एव ते आद्यन्तवन्तकौन्तेय न ते सुरमते बुध शक्नोति हैव यः सोढुं प्राक्शरीरविमोक्षणात् कामक्रोधोद्भवं वेगं स युक्तः स सुखी नर योऽन्तः सुखोऽन्तरारामस्तथान्तर्ज्योतिरेव स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति लभन्ते ब्रह्मनिर्वाण मृषय क्षीणकर्मसा छिन्नाद्वैधायतात्मान सर्वभूतहितेरता कामक्रोधवियुक्तानां यतीनां यतचेतसाम् अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मना स्पर्शान् कृत्वा बहिर्बाह्याश्चक्षुस्थैवान्तरे भ्रुवो प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणा विगते चाभय क्रोधो यस्सदा मोक्त एव स भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरं सुहृदं सर्वभूतानां यत्त्वा मां शान्तिमृच्छति ज्ञात्वा मां शान्तिमेच्छति। ॐ तत्सत् श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसन्न्यासयोगो नाम पञ्चमः।